ॐ श्री गणेशाय नमः। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं भक्तया व्यासः स्मरे नित्यमायु कामार्थसिद्धये। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकं तृतीयं कृष्णपिण्डाक्षं गजवस्त्रं चतुर्थकं लंबोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्यर्वर्ण तथाष्टमं नवमं भालचंद्रं च दशमं मन्तुविनायकं एकादशं गणपतिं द्वादशं तु गजाननं। द्वादशे तानि नामानि त्रिसन्ध्यं यः पठेत् नरः न च विघ्नमयं तस्य सर्वसिद्धिकरं प्रभो। विद्यार्थी लभते विद्यां, धनार्थी लभते धनं, पुत्रार्थी लभते पुत्राण, मोक्षार्थी लभते गतिं। जपेत् गणपति स्तोत्रं खड्भिर्मासः फलं लभेत्। संवत्सरेण सिद्धिं च लभते नात्र संशयः। अष्टभयो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः।